इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका सुषमा कुमारी। आदौ मुख्य वार्ताः। ओमान देशस्य टैंकर आक्रमणस्य विषये भारतेन प्रबलं विरोधं प्रकटितम्। एमटी जलवीर नौकायाः सर्वे कर्मचारिणः सुरक्षिताः इति सूचना अस्ति। नीति आयोगस्य सभायां प्रधानमन्त्रिणा नरेन्द्र मोदिना विकसित भारतस्य कृते कौशलस्य वृत्त्यावसरस्य च महत्वं प्रतिपादितम्। आन्ध्रप्रदेशस्य मद्य परिवहन भ्रष्टाचार प्रकरणस्य हैदराबादे ईडी इत्यनेन सहसा अन्वेषणं कृतम्। भारतेन मालदीव्स देशं प्रति खसरा रोगस्य सूच्यौषधीनां चिकित्सा साहाय्यं प्रेषितम्। अपि च अद्य रात्रौ बृहत्तमः फीफा विश्व चषक क्रीडा आरभ्यते, यत्र मैक्सिको दलं दक्षिण अफ्रीका दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। ओमान देशस्य तटे एकस्याः नौकायाः उपरि सद्यः एव कृतस्य आक्रमणस्य भारतेन निन्दितम्, यस्मिन् त्रयः भारतीय नागरिकाः मृताः। नवदिल्ल्याम् अन्तर्मन्त्रिमण्डलीय वार्ताहर सम्मेलनम् अभिसम्बोधयन् विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः अवदत् यत् सर्वकारेण अमेरिकादेशस्य चार्ज डी अफेयर्स इत्येतान् आहूय प्रबलं विरोधं प्रकटितमस्तीति। सः अस्मिन् प्रदेशे नौकायानस्य उपरि निरन्तरम् आक्रमणानि अतीव चिन्तास्पदं वर्णितानि, तथा च शान्तिं स्थिरतां च पुनः स्थापयितुं संवादस्य कूटनीतेः च आह्वानमपि अकरोत्।
हम अपनी नाविकों के कल्याण और सुरक्षा को बहुत महत्व देते हैं। हमने कल ओमान तट पर हुए जहाज पर हमले की कड़ी निंदा की, जिसमें दुर्भाग्यवश हमने 3 भारतीय नागरिकों को खो दिया। हमने इस घटना के विरोध में भारत अमरीकी मिशन उपप्रमुख को तलब किया था। क्षेत्र में जहाजों पर लगातार हो रहे हमले बेहद चिंताजनक हैं। ये हमले तुरंत बंद होने चाहिए। हम संवाद और कूटनीति का भी आह्वान करते हैं ताकि क्षेत्र में जल्द से जल्द शांति और स्थिरता बहाल हो सके।
गल्फ क्षेत्रस्य अपर सचिवः असीम आर महाजनः अवदत् यत् सर्वकारः पश्चिम एशिया क्षेत्रस्य स्थितिं निकटतया निरीक्षमाणः अस्ति। भारतीय अभियानेन च अहोरात्रं सहायता सेवाः अपि आरब्धवन्तः। सः अवदत् यत् अस्मिन् मासे 8 दिनांके ओमान देशस्य समीपे लक्षिताः एमटी मारिवेक्स नौकायाः सर्वे 24 भारतीयाः कर्मचारिणः सुरक्षिततया रक्षिताः सन्ति। ते शीघ्रमेव स्वदेशं प्रत्यागमिष्यन्ति इत्यपेक्षया अस्ति। पत्तर नौवहन जलमार्गमन्त्रालयस्य अपर सचिवः मुकेश मंगलः अवदत् यत् मृतकानां नाविकानां परिवारान् सीमेन वेलफेयर फंड सोसाइटी इत्यस्य माध्यमेन प्रत्येकस्मै 10 लक्ष रूप्यकाणाम् अनुग्रहराशिः प्रदीयते। सः अग्रे सूचितवान् यत् अद्य ओमान देशस्य शिनासपत्तनस्य समीपे समुद्रीय सुरक्षा घटनायां संलग्नः गिनी बिसाउ इत्यस्य ध्वजेन युक्तः एमटी जलवीर इत्यस्मिन् स्थिताः सर्वेपि 20 भारतीय कर्मचारिणः सुरक्षिताः सन्ति। निर्वासन प्रयासाः च प्रचलन्ति। अत्रान्तरे देशे उर्वरकस्य ईंधनस्य च आपूर्तिः स्थिरास्ति इति प्रशासनेन आश्वासितम्। उर्वरक विभागस्य अपर सचिवा अपर्णा एस शर्मा इत्येषा अवोचत् यत् पर्याप्तानि भण्डाराणि उपलभ्यन्ते। अनेक देशैः आयातः च सुनिश्चितः अस्ति। पेट्रोलियम प्राकृतिक ईंधन मंत्रालयस्य संयुक्त सचिवा सुजाता शर्मा इत्येषा अकथयत् यत् आंतरिक शोधनागाराणि उच्च क्षमतया कार्यं कुर्वन्ति। अशोधित तैलस्य पेट्रोल इत्यस्य डीजल इत्यस्य एलपीजी इत्यस्य च प्राकृतिक ईंधनस्य आपूर्तिः अप्रभाविता अस्ति इति सा अवोचत्। प्रधानमन्त्री नरेन्द्र मोदी अवदत् यत् साम्प्रतं विश्वम् अनिश्चिततायाः अस्थिरतायाः च अनुकालम् अनुभवति, परं भारतदेशः आत्मविश्वासेन दृढसंकल्पेन च अग्रेसरति। नवदिल्ल्यां राष्ट्रपतिभवने नीति आयोगस्य 10 शासक परिषदः अध्यक्षतां कुर्वन् सः अकथयत् यत् यथा यथा भारतं विकसित भारतस्य लक्ष्यस्य समीपं गच्छति, तथा तथा केन्द्र राज्य सर्वकारयोः उत्तरदायित्वं वर्धयन्ति। तेन भणितं यत् राज्येषु पारस्परिक सहयोगः संवादः विचाराणाम् आदान प्रदानम् आवश्यकं भवेत्। विषयेऽस्मिन् नीत्यायोगः महत्वपूर्णां भूमिकां निर्वाहयति। नीति आयोगस्य सहयोगेन सर्वेषां राज्याणां केन्द्रशासित प्रदेशानां च मध्ये विचार विनिमयः सम्यक् भवेत्। विकसित भारतस्य लक्ष्यं प्रति बलमपि वर्धिष्यति। सभायामस्यां देशे कौशल विकासस्य संवर्धनं वृत्त्यवसराणि अपि वर्धयिष्यन्ति। वर्षस्य अस्य विषयो विद्यते सप्तचत्वारिंशदुत्तर द्विसहस्रतम वर्ष पर्यन्तं विकसित भारताय समावेशी मानव विकासः। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। प्रवर्तन निदेशालयेन आन्ध्र प्रदेश राज्य मद्य पदार्थ निगम लिमिटेड इत्यस्य कथिते परिवहन प्रवञ्चनाकाण्डे हैदराबादे पञ्च स्थलेषु सहसा अन्वेषणं कृतम्। प्रवर्तन निदेशालयस्य अधिकारिणः कथयन्ति यत् आरोपिजनाः शासकीय कोषात् पञ्चनवत्यधिक कोटि रूप्यकाणां वित्तहरणं कृतवन्तः तथा च स्व सहयोगिनां कृते अवैध लाभाः अर्जिताः। भारतेन प्रतिरक्षण व्याप्तिं सुदृढं कर्तुं सार्वजनिक स्वास्थ्यस्य रक्षणार्थं च प्रयत्नान् समर्थयितुं मालदीव देशं प्रति 20,000 यावत् खसरा सूच्यौषधीनां प्रायः 3 टन चिकित्सा सामग्रीं च प्रेषितम्। विदेश मन्त्रालयः अवदत् यत् एतत् सहयोगं द्वीपराष्ट्रे वर्धमानानां खसरा प्रकरणानां निवारणे साहाय्यं करिष्यति तथा च मालदीव्स सर्वकारस्य प्रतिक्रिया उपायान् सुदृढं करिष्यति इति। तस्य नेबरहुड फर्स्ट विजन महासागर इत्येतयोः अन्तर्गतं भारतं मालदीव्स देशेन सह संयुक्त प्राथमिकतासु निकटतया कार्यं कर्तुं प्रतिबद्धम् अस्ति। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अद्य राजस्थाने जैसलमेर जनपदे रामगढ़े 20 किलोवाट क्षमतायुतस्य FM प्रेषकस्य आभासीय उद्घाटनम् अकरोत्। जयपुरस्थे आकाशवाणी परिसरे समायोजिते एकस्मिन् कार्यक्रमे उद्घाटन कार्यमिदं सम्पन्नम्। अनेन सह राज्ये FM प्रेषकाणां संख्या विवर्ध्य 49 जाता। नूतनः प्रेषकः सीमावर्तिक्षेत्रेषु 80 किलोमीटर परिमिते क्षेत्र रेडियो प्रसारणस्य आवरणं प्रदास्यति। एतेन जनाः विविधाः सूचनाः शैक्षिक सामग्र्यः प्राप्तुं शक्नुवन्ति। सभां सम्बोधयन् श्रीवैष्णवः अवदत् यत् देशस्य सीमाक्षेत्रेषु कश्मीरतः कच्छपर्यन्तम् आकाशवाणी दूरदर्शनयोः प्रसारणसेवायाः विशिष्टाः लाभाः प्राप्स्यन्ते।
मैं निवेदन करूंगा आकाशवाणी के सभी साथियों से और विशेषकर डीजी साहब से, राजीव जी से और हमारे प्रसार भारती के चेयरमैन श्री प्रसून जोशी जी से कि अब हम एक नए तरीके से सोचे आकाशवाणी के बारे में। हम आज के समय के हिसाब से आकाशवाणी को डिजिटल फर्स्ट और हाइपर लोकल इन दो सूत्रों में बांधे। जो भी डिजिटल प्लेटफॉर्म हमारे पास आज अवेलेबल है, अपना खुद का वेव्स OTT है, उस प्लेटफॉर्म को यूज करें। लोकल आर्ट, लोकल संस्कृति, लोकल खानपान को आगे लाने का एक बहुत बड़ा प्लेटफॉर्म बनाए। अगले 1000 दिनों में एक मास्टर प्लान बना के आकाशवाणी और दूरदर्शन का पूरा ट्रांसफॉर्मेशन करे। आपको पूरा फ्रीडम है, जो आप कहोगे वो पॉलिसी बनेगी। पॉलिसी बनाने वाले आप, इम्प्लीमेंट करने वाले आप।
प्रशासनेन एथोनॉल मिश्रित पेट्रोल उत्पाद शुल्कम् अपसारितम्। वित्त मन्त्रालयेन एकया अधिसूचनया प्रकाशितं यत् 20%-30% एथोनॉल मिश्रित पेट्रोल उत्पादं केन्द्रीय उत्पाद शुल्क श्रेण्यात् पूर्णतया विमुक्तम्। मन्त्रालयेन उक्तं यत् अस्य शैथिल्यस्य उद्देश्यं भारतीय एथोनॉल मिश्रण कार्यक्रमं सुदृढीकरणमस्ति। 26,000 वर्षस्य फीफा विश्व चषक क्रीडायाः आरम्भः अद्य रात्रौ मेक्सिको नगरस्य ऐतिहासिके एस्टाडियो एर्जेटेका क्रीडागृहे आरभ्यते इति वार्ताः।